गणानाम् त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तरिषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिष शिवतमा शिवम् बभूवते धनुः शिवा शरव्याय तव तया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमयागेशन्तापि चाकशे यामिषम् गिरिशन्तहस्तेऽभिभस्यस्तवे शिवाङ्गिरित्रताम् कुरु माहिगुंसे पुरुषम् जगत् शिवे नवचसा त्वागिरिशाच्चा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अनेकश्च सर्वान्नम् भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्ष्वश्रुता सहस्रशो वैशागुम् हेडयीमहे अशव्यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडजातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यथनुस्त्वगुम् सहस्राक्षशते शुधे निषेर्य शल्यानाम् मुखा शिवो नः समनाभव विज्यम् दनु कपद्मिनो विशल्यो बाणमागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतुर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभ्रुज नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुनिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकाराय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिश चपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथिनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्राय तथा विमेक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णवेताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्त्रेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचैरवे परिचरायारण्यानां पतये नमो नमः श्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्रञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्भतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपदिभ्यश्च वो नमो नमो भ्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यस्येनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो रन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्ववनिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो भीदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रेयाय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कात्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च भट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिके शेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः वार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः तार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः किगुंशिराय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नम पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वह्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमेवत्केभ्यः द्रावे अंधसस्पते दरिद्रन्नीललोहिता एषां पुरुषाणामेषां पशूनां मा भेर्मा रोमो एषां किञ्चनामत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छं चयोश्च मनुराय चे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकं मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरं मोत मातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तो केतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान् मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ये गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते असो रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्च द्विबर्हाः सुहिश्रुतं गर्त सदैयुवानं मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरामघवद्भ्यस्तनुष्वमीढ्वस्तोकायतनयाय मृडया मेढुष्टमशिवतम शिवो नः सुमनाभव परमे वृक्ष आयुधन्निदाय कृत्यं वसा न आचर पिनाकं बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशा नो भगव पराचेनामुखाकृधे सहस्राणि सहस्रशो ये रुद्राधिभूम्या तेषागुं सहस्रयो जने वधन्वानि तन्मसे अस्मिन् महत्यर्णवे तरिक्षे भवा अधे नीलग्रीवा शितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा शितिकण्ठा दिवकुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान ये पथाम्बतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वरुषमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतीचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं दुष्मो यश्च नो द्वेष्टितं भोजं वेदधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमोऽस्तु एते सहस्रमयुतं पाशा मृत्योर्मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्ठुर्यस्विशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसा यदुद्रं नमोभिर्देवमसुरं दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजो यगुं शिवाभिमर्शनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञा त्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेन मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ शान्ति 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 ॐ भद्रं अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणातः कृमेणागुं राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेताः अथो आशादिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या ಕೃತಸ್ಯ ವಿಶೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಹ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆದತಾಮಿ ತಥಾ ಹಿ ತತ್ ಖನ್ಫನ್ಮಸೆ ಓಂ ಶಾಂತಿ 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 ಓಂ ಭದ್ರಂ ಕರ್ಣೇ ವಿಶ್ವಣುಯಾಮ ದೇವಾಃ ಭದ್ರಂ ಪಶ್ಯೇಮಾರ್ಷಭಿರ್ಯಜತ್ರಾಃ ಸ್ಥಿರೈರಂಗೈಸ್ತು ವಾಗುಂಸಸ್ತನೂಭಿಃ ಯಶೇಮ ದೇವಹಿತಂ ಯದಾಯುಃ ಸ್ವಸ್ತಿ ನ ಇಂದ್ರೋ ವೃದ್ಧಶ್ರವಾಃ ಸ್ವಸ್ತಿ ನ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿ ನಸ್ತಾಕ್ಷೋ ಅರಿಷ್ಟನೇಮಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದಧಾತು ಓಂ ಶಾಂತಿ 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 ಅಥ ಸೂರ್ಯಾಥರ್ವಾಂಗಿರಸಂವ್ಯಾಖ್ಯಾಸ್ಯಾಮಃ ಬ್ರಹ್ಮ ಋಷಿಃ ಗಾಯತ್ರಿ ಛಂದಃ ಆದಿತ್ಯೋ ದೇವತಾ ಹಂಸಃ ಸೋಹಮಗ್ನಿ ನಾರಾಯಣ ಯುಕ್ತಂ ಬೀಜಂ ಹೃಲ್ಲೇಖಾ ಶಕ್ತಿಃ ವಿಯದಾದಿ ಸರ್ಗ ಸಂಯುಕ್ತಂ ಕೀಲಕಂ ಚತುರ್ವಿಧ ಪುರುಷಾರ್ಥ ಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ ಷಟ್ಸ್ವರಾರೂಢೇನ ಬೀಜೇನ ಷಡಂಗಂ ರಕ್ತಾಂಬುಜಸಂ ಸ್ಥಿತಂ ಸಪ್ತಾಶ್ವರಥಿನಂ ಹಿರಣ್ಯವರ್ಣಂ ಚತುರ್ಭುಜಂ ಪದ್ಮದ್ವಯಾಭಯವರದಹಸ್ತಂ ಕಾಲಚಕ್ರ ಪ್ರಣೇತಾರಂ ಶ್ರೀಸೂರ್ಯನಾರಾಯಣಂ ಯೇವಂ ವೇದ ಸ ವೈ ಬ್ರಾಹ್ಮಣಃ ಓರ್ಭುವಃ ತತ್ಸವಿತುರ್ವರೇಣ್ಯಂ ವರ್ಗೋ ದೇವಸ್ಯ ಧೀಮಹಿ ಧಿಯೋ ಯೋ ನಃ ಪ್ರಚೋದಯಾತ್ ಸೂರ್ಯ ಆತ್ಮಾ ಜಗತಸ್ತಸ್ತುಷಸ್ಯ ಸೂರ್ಯಾದ್ವೈ ಖಲ್ವಿಮಾನಿ ಭೂತಾನಿ ಜಾಯಂತೆ ಸೂರ್ಯಾದ್ಯಜ್ಞ ಪರ್ಜನ್ಯೋನ್ನಮಾತ್ಮಾ ನಮಸ್ತೆ ಆದಿತ್ಯ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಕರ್ಮ ಕರ್ತಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ವಿಷ್ಣುರಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ರುದ್ರೋಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಮೃಗಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಯಜುರಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಸಾಮಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಮಥರ್ವಾಸಿ ತ್ವಮೇವ ಸರ್ವಂ ಛಂದೋಸಿ ಆದಿತ್ಯಾದ್ ವಾಯುರ್ಜಾಯತೆ ಆದಿತ್ಯಾದ್ ಭೂಮಿರ್ಜಾಯತೆ ಆದಿತ್ಯಾಪೋ ಜಾಯಂತೆ ಆದಿತ್ಯಾದ್ ಜ್ಯೋತಿರ್ಜಾಯತೆ ಆದಿತ್ಯಾದ್ ವ್ಯೋಮದಿಶೋ ಜಾಯಂತೆ ಆದಿತ್ಯಾದ್ ದೇವಾ ಜಾಯಂತೆ ಆದಿತ್ಯಾದ್ವೇದಾ ಜಾಯಂತೆ ಆದಿತ್ಯೋ ವಾ ಏಷ ಏತನ್ಮಂಡಲಂ ತಪತಿ ಅಸಾವಾದಿತ್ಯೋ ಬ್ರಹ್ಮ ಆದಿತ್ಯೋ ಅಂತಃಕರಣ ಮನೋ ಬುದ್ಧಿಚಿತ್ತಾಹಂಕಾರಾಃ ಆದಿತ್ಯೋ ವೈ ವ್ಯಾನ ಸಮಾನೋ ದಾನೋಪಾನ ಪ್ರಾಣಃ ಆದಿತ್ಯೋ ವೈ ಶ್ರೋತ್ರತ್ವಕ್ಚಕ್ಷುರಸನಗ್ರಾಣಾಃ ಆದಿತ್ಯೋ ವೈ ವಾಕ್ ಪಾಣಿ ಪಾದ ಪಾಯೋಪಸ್ಥಾಃ ಆದಿತ್ಯೋ ವೈ ಶಬ್ದ ಸ್ಪರ್ಶ ರೂಪ ರಸ ಗಂಧಾಃ ಆದಿತ್ಯೋ ವೈ ವಚನಾ ದಾನ ಗಮನ ವಿಸರ್ಗಾನಂದಾಃ ఆనందమయో విజ్ఞానమయో విజ్ఞాన ఘన ఆదిత్యః నమో మిత్రాయ మానవే మృత్యోర్మా పాహి ప్రాజిష్ణవే విశ్వహేతవే నమః సూర్యాద్భవంతి భూతాని సూర్యేణ పాలితాని తు సూర్యే లయం ప్రాప్నువంతి యః సూర్యస్సోహమేవ చ చక్షుర్ణో దేవః సవితా చక్షుర్న ఉత పర్వతః చక్షుర్దాతా దధాతునః ఆదిత్యాయ విద్మహే సహస్రకిరణాయ ధీమహి తన్నః సూర్యః ప్రచోదయాత్ సవితా పురస్తాత్ సవితా పశ్చాత్తాత్ సవితోత్తరాత్ సవితా ధరాత్ సవితానః సువతు సర్వతాతిగుం సవితానోరాసతాం దీర్ఘమాయుః ఓమిత్యేకాక్షరం బ్రహ్మా ఘృణిరితి ద్వే అక్షరే సూర్య ఇత్యక్షరద్వయం ఆదిత్య ఇతి త్రీణ్యక్షరాణి ఏతస్యైవ సూర్యస్యాష్టాక్షరో మనుః యః సదాహరహర్జపతి స వై బ్రాహ్మణో భవతి స వై బ్రాహ్మణో భవతి సూర్యాభిముఖో జప్త్వా మహావ్యాధిభయాత్ ప్రముచ్యతే అలక్ష్మీర్నశ్యతి అభక్ష్యభక్షణాత్ పూతో భవతి అగమ్యాగమనాత్ పూతో భవతి పతిత సంభాషణాత్ పూతో భవతి అసత్సంభాషణాత్ పూతో భవతి మధ్యాహ్నే సూర్యాభిముఖః పఠేత్ సద్యోత్పన్న పంచమహాపాతకాత్ ప్రముచ్యతే సైషా సావిత్రీం విద్యాం న కించిదపి న కస్మైచిత్ ప్రశంశయేత్ య ఏతాం మహాభాగః ప్రాతః పఠతి స భాగ్యవాన్ జాయతే పశూన్ విందతే వేదార్థం లభతే త్రికాలమేతజ్జప్త్వా క్రతుశత ఫలమవాప్నోతి హస్తాదిత్యే జపతి స మహామృత్యుం తరతి స మహామృత్యుం తరతి య ఏవం వేద ఇత్యుపనిషత్ భద్రం కర్ణే విశృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగై సుష్టువాగుంసస్తనూభిః యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి నః పూషా విశ్వవేదాః స్వస్తి నస్తాక్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు. ఓం శాంతి శాంతి శాంతిః. ఓం సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై. ఓం శాంతి శాంతి శాంతిః. అథ పురుషో హ వై నారాయణో కామయత ప్రజా సృజేయేతి నారాయణాత్ ప్రాణో జాయతే మనః సర్వేంద్రియాణి చ ఖం వాయుర్జ్యోతిరాప పృథివీ విశ్వస్య ధారిణి నారాయణాద్ బ్రహ్మా జాయతే నారాయణాద్ రుద్రో జాయతే నారాయణాదింద్రో జాయతే నారాయణాద్ ప్రజాపతయ ప్రజాయంతే नारायणाद्वादशादित्या रुद्रावसव सर्वाणि च छन्दागुंसे नारायणाद्देव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रस्य नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम्राय स्पोषङ्गोपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगे जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठमुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्माद्दिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो यो धीते प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायमधीयानो दिवसकृतम् पापम् नाशयति माद्यन्दिनमादित्याभिमुखो धीयान् पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहनावतु सहनौ भुनक्तु सहवीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ तेजोऽसि तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यङ् तेजसा सम्पिवृद्धिमा ओजोऽसि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्छिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यङ् ओजसा सम्पिवृद्धिमा पयोऽसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्छिरो अस्तु मे पयस्वान् विश्वतः प्रत्यङ्ग पयसा संपिवृद्धिमा आयुरसि तत्ते प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ्ग आयुषा संपिवृद्धिमा इममग्न आयुषे वर्चसे गृहे प्रियगुं रेतो वरुण सोमराजन् माते वास्मा अरिते शर्म यच्छ विश्वे देवा जरदस्थिर्यथा सत् आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि यतो वाचो मनोजवाः यतः क्षरन्ति सिन्धवः तासाम् त्वा सर्वासागुम् वृषा अविषिञ्चामि वच्चसा समुद्र इवासि गम्भणा सोम इवास्यताभ्यः अग्निरिव विश्वतः प्रत्यङ्ग सूर्य इव ज्योतिषा विभोः अवाम्यो द्रवणे रसः तमहमस्मामुष्यायनाय तेजसे ब्रह्मवर्चसाय गृह्णामि अवाम्य ऊर्मौ रसः तमहमस्मामुष्यायनाय ओजसे वीर्याय गृह्णामि अवाम्यो मध्यतो रसः तमहमस्मामुष्यायनाय पुष्टये प्रजननाय गृह्णामि अवाम्यो यज्ञियो रसः तमहमस्मामुष्यायनाय आयुषे दीर्घायुत्वाय गृह्णामि ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपतिः ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जागृवागुम् सस्समिन्दते विष्णो यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजते तद्यदयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगाद्यदयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दानम् विपापम् परमेश्वभूतम् यत्पुण्डरीकम् पुरमद्य सद्गुस्तम् तत्राविदह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादो स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति